इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। बिहार विधानसभा निर्वाचनस्य प्रथमचरणाय प्रचाराभियानम् अद्य सायं स्थगितो जातः। भारत निर्वाचनायोगेन अद्य विशेष गहन पुनरीक्षणाभियानस्य द्वितीय चरणस्य शुभारम्भः कृतः। एतत् अभियानं तावत् नवराज्येषु त्रिषु केन्द्र शासित प्रदेशेषु च प्रचाल्यते। नवदिल्ल्यां इजराइल देशस्य विदेशमन्त्रिणा गिदोन सार इत्यनेन सह उपवेशनावधौ विदेशकार्यमन्त्री डॉ एस जयशंकरः अद्य अवदत् यत् भारतं गाजा शान्ति योजनायाः समर्थनं करोति तथा आशां प्रकटयति यत् सा योजनेयं चिरस्थायि समाधानस्य मार्गं प्रशस्ती करिष्यति। अपि च भारतदेशः रेबीज रोगस्य प्रकोप निवारणार्थं 10,000 रेबीज सूच्यौषधयः तिमोर लेस्ते देशाय प्रेषितवान्। अथ वार्ताः विशदीकृत्य। बिहार विधानसभा निर्वाचनस्य प्रथमचरणाय प्रचाराभियानम् अद्य सायं स्थगितो जातः। अस्मिन् चरणे गुरुवासरे तावत् 18 जनपदानाम् 21,00,000 विधानसभा आसनेषु मतदानं भविष्यति। अन्तिमे दिने एनडीए तथा महागठबन्धनस्य घटकदलानां शीर्षनेतृभिः राज्ये मतदातृणाम् आकर्षणार्थं सम्पूर्णप्रयासः कृतः। अत्रान्तरे जनतादलस्य वरिष्ठनेता तथा केन्द्रीयमन्त्री राजीवरञ्जनः उत लल्लन सिंहः इत्येतं विरुध्य मोकामा क्षेत्रे आदर्श आचार संहितायाः कथित उल्लंघनस्य आरोपे अद्य एका प्राथमिकी पंजीकृता अस्ति। प्राप्त वृत्तानुसारं लल्लन सिंहस्य एकं चलचित्र दृश्यं सामाजिक माध्यमेषु प्रसारितं भवति, यस्मिन् सः विपक्ष मतदातृन् तेषां मताधिकारस्य उपयोगेण निवारयति इति। भारत निर्वाचनायोगेन अद्य विशेष गहन पुनरीक्षणाभियानस्य द्वितीय चरणस्य शुभारम्भः कृतः। एतत् अभियानं तावत् नवराज्येषु त्रिषु केन्द्रशासित प्रदेशेषु च प्रचाल्यते। एतेषु तावत् मतदातृसंख्या आहत्य 150 कोटिमितं वर्तते। मतदातृसूचीनां व्यापक पुनरीक्षणं 26,000 फरवरी मासस्य 7 दिनांके अन्तिममतदातृसूच्याः प्रकाशनेन सह समाप्तिमेष्यति। एसआईआर अभियानस्य नूतने चरणे अण्डमान निकोबार द्वीपसमूहः, लक्षद्वीप, छत्तीसगढ़, गोवा, गुजरात, केरल, मध्यप्रदेश, पुदुचेरी, राजस्थान, तमिलनाडु, उत्तरप्रदेश, पश्चिम बंगालश्चेत्यादीनि राज्यानि सम्मिलितानि भविष्यन्ति। एतेषु तमिलनाडु, पुदुचेरी, केरल, पश्चिम बंगालेषु 26,000 वर्षे विधानसभा निर्वाचनं भविष्यति। गणनाचरणं तावत् दिसम्बर मासस्य 4th दिनांकपर्यन्तं प्रचलिष्यति। प्रारूप मतदातृसूची दिसम्बर मासस्य 9 दिनांके प्रकाशिष्यते। एतेषु 12 राज्येषु केन्द्रशासित प्रदेशेषु च मतदातृसूच्यः पूर्वमेव स्थगिताः सन्ति। मतदानकेन्द्रस्तरस्य अधिकारिणः वर्तमान पञ्जीकृत मतदातृभ्यः विशिष्टानि गणना प्रपत्राणि वितरिष्यन्ति। एतेषु प्रपत्रेषु तेषां वर्तमान मतदातृविवरणानि समाविष्टानि सन्ति। यदि तेषां नाम 3,000 मतदातृसूच्यामपि प्रकाशितं तर्हि तेषां कृते अतिरिक्तस्य प्रलेखप्रदानस्य आवश्यकता न भविष्यति। निर्वाचनायोगानुसारं एसआईआर अभियानस्य उद्देश्यमस्ति यत् अपात्र नामानि निरस्य कोऽपि योग्यः नागरिकः सूच्याः वञ्चितः न भवेदिति। अस्यां प्रक्रियायां मतदातृणां जन्मस्थानस्य सत्यापनं समाविष्टं, येन अवैधनागरिकाणां विनिर्णये साहाय्यं लप्स्यते। बांग्लादेश, म्यांमार देशाभ्याम् आगतानाम् अवैध प्रवासिनामुपरि जातस्य कार्याचरणस्यान्तर्गतम् अयं पदक्रमः विशिष्टतां भजते। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अवदत् यत् शिक्षा न केवलम् आत्मनिर्भरतायाः साधनम् अपि तु समाज राष्ट्रयोः विकासस्य प्रेरणा अपि अस्ति। सा अद्य उत्तराखण्डस्य नैनीतालनगरे कुमाऊं विश्वविद्यालयस्य 20वें दीक्षान्त समारोहं सम्बोधयन्ती आसीत्। राष्ट्रपतिना आग्रहः कृतः यत् ते स्वशिक्षायाः उपयोगं वञ्चितानां सेवायां राष्ट्रनिर्माणार्थञ्च कुर्वन्तु इति। शिक्षा तावत् बुद्धिं, कौशलं, नैतिकमूल्यानि च दृढीकरोति इत्यपि शास्त्रपतिना सबलं प्रोक्तम्। उत्तराखण्डः दिव्यतायाः शौर्यस्य च भूमिः इति वर्णयन्ति सा स्वातन्त्र्यसैन्यबलानां सम्मानं कृतवती तथा च राष्ट्रस्य रक्षणे राज्यस्य युवकानां महत्वपूर्णं योगदानम् अस्ति इत्यपि प्रोक्तवती सा पुनः सबलं प्रोक्तवती यत् भारतं 47-2000 वर्षपर्यन्तं विकसितं राष्ट्रं कर्तुं सर्वकारस्य लक्ष्यमस्ति तथा च एतल्लक्ष्यं प्राप्तुं युवकाः महत्वपूर्णं योगदानं करिष्यन्ति।
आज इस भिक्षु समारोह के साथ आपकी औपचारिक शिक्षा का एक महत्वपूर्ण चरण पूरी हो रहा है, लेकिन ये शिक्षा का अंत नहीं है। मेरा मानना है कि आपको अपने भीतर के विद्यार्थी को हमेशा जीवित रखना चाहिए। शिक्षा आपको आत्मनिर्भर तो बनाती ही है, साथ ही शिक्षा आपको विनम्र बनने तथा समाज और देश के विकास में अपना योगदान देने के लिए प्रेरित भी करती है।
राष्ट्रपति पदासीना द्रौपदी मुर्मुः गुरुनानक जयन्त्याः पूर्वसन्ध्यायां समेभ्यः देशवासिभ्यः शुभकामनां प्रायच्छत्। स्वकीय सन्देशे राष्ट्रपतिः मुर्मुः अवदत् यत् अयम् अवसरः सर्वान् गुरुनानक देवस्य आदर्शानां मूल्यानाञ्च आचरणाय प्रेरयति, सहैव श्रेष्ठ समाजस्य निर्माणदिशि मार्गदर्शनञ्च करोति। सा अग्रे अवदत् यत् गुरुनानकस्य सन्देशः शिक्षयति यत् सत्यन्याय करुणाधारितं जीवनमेव सफलतायाः वास्तविकमानदण्डमस्ति। सः सर्वानपि सत्यनिष्ठया जीवितुं प्रेरयति। राष्ट्रपतिः सर्वान् गुरुनानकदेवस्य आदर्शान् स्वकीये जीवने आत्मसात् कर्तुं सहैव शान्तिपूर्णस्य समृद्धराष्ट्रस्य च निर्माणाय तस्य मार्गानुसरणस्य आग्रहम् अकरोत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। विदेशकार्यमन्त्री डॉ एस जयशंकर अद्य अवदत् यत् भारतं गजा शान्ति योजनायाः समर्थनं करोति तथा आशां प्रकटयति यत् सा योजना चिरस्थायि समाधानस्य मार्गं प्रशस्तीकरिष्यति। नवदिल्ल्यां इजराइल देशस्य विदेशमन्त्रिणा गिदोन सार इत्यनेन सह उपवेशनावधौ मन्त्री अवदत् यत् भारत इजराइल देशौ आतंकवादस्य विशेष समाह्वानानि सम्मुखीकुरुतः। उभावपि देशौ आतंकवादं प्रति असहिष्णुतायाः वैश्विक दृष्टिकोणं सुनिश्चेतुं कार्यरतौ स्तः। इजराइल देशस्य विदेशमन्त्रिणः प्रतिनिधिदलस्य च स्वागतं कुर्वन् डॉ जयशंकरः अवदत् यत् भारत इजराइल देशयोः मध्ये रणनीतिक सहभागित्वमस्ति तथा च उभौ देशौ कठिन समये ऐक्येन तिष्ठतः। सर्वकारेण कथितं यत् भारतस्य लक्ष्यं तावत् 30-2000 यावत् 30 कोटि टन्मितं सहैव 47-2000 वर्षपर्यन्तं 50 कोटि टन्मितं इस्पातोत्पादनक्षमतायाः प्रापणं वर्तते। इस्पात मन्त्रालयस्य सचिवः सन्दीप पौण्ड्रीकः अद्य नवदिल्ल्यां सीआईआई इस्पात शिखर सम्मेलनस्य 25-2000 वर्षस्य उद्घाटन सत्रं सम्बोधयन् एतत् अवोचत्। श्रीपौण्ड्रीकः इस्पात उद्योगं राष्ट्रिय अर्थव्यवस्थायाः मेरुदण्डत्वेन तथैव विकसित भारतस्य दृष्टिकोणं समेधितुं प्रमुख प्रवर्तकत्वेन च वर्णितवान्। भारतदेशः रेबीज रोगस्य प्रकोप निवारणार्थं 10,000 रेबीज सूच्यौषधयः 200 रेबीज इम्यूनोग्लोबुलिन इत्कुप्यश्च तिमोरलेस्ते देशाय प्रेषितवान्। भारतदेशः वैश्विक दक्षिणाय स्वास्थ्य सहभागित्वेन स्वस्य भूमिकां पुनः दृढीकृतवान्। विश्व स्वास्थ्य संघटनानुसारं प्रथमः मानव रेबीज रोगः 24-2000 वर्षस्य मार्च मासे तिमोरलेस्ते देशे समंकितः। तदनन्तरं विश्व स्वास्थ्य संघटनेन रेबीज रोगस्य सूच्यौषधानां 6,000 इम्यूनोग्लोबुलिनस्य च 200 कुप्यः देशस्य स्वास्थ्य मन्त्रालयाय प्रदत्ताः। भारतीय ऋतु विभागेन अद्य दिल्ल्याः सीमा क्षेत्रेषु केषुचित् स्थानेषु लघुवर्षायाः पूर्वानुमानं कृतमस्ति। अत्रान्तरे दिल्ल्याः सीमा क्षेत्रेषु वायुगुणवत्ता अद्य अपराह्णे प्रायः 5-3% वायुगुणवत्ता सूचकांकः निम्नक्षेण्यामेव आसीत। अद्य अण्डमान निकोबार द्वीपेषु विद्युद्वाहनैः प्रचण्डवातैः च सह मेघवृष्टेः पूर्वानुमानमपि कृतमस्ति। इति वार्ताः।